श्रीज्योतिर्भगवन् ब्रह्मन् प्रातः सन्ध्या प्रवर्तते उत्तिष्ठमुनिशार्दूले कर्तव्यम् दैवमान्निकम् उत्तिष्ठोत्तिष्ठ श्रीज्योतिरुत्तिष्ठकलुषामः उत्तिष्ठकरुणारूप त्रैलोक्यम् मङ्गलम् कुरु श्रीजगातृजगदाम् बहुलार्थसौख्यसन्दायिनिश्रितजनामनसु स्वभा मातः समस्तभुवनस्थितजन्मभाजाम् श्रीज्योतिरीशदयिते तव सुप्रभातम् तव सुप्रभातमखिलाच्छिवाञ्छितपुगतलोकरक्षसु जनालि सेवित क्रमयोगमिच्छभवरोगमारक क्षणिकापुरीनिलय सर्वरक्षक श्रीज्योतिरीशकरुणाकरदीनबन्धो सन्तप्तलोकपरिपालनशक्तियुक्त त्वद्भक्तकष्टविनिवारणबद्धदीक्ष श्रेयो विधायक सदाम् तव सुप्रभातम् ॐ ज्योतिरोमिति सदा हृदये स्तुवन्ति ते द्वारि भक्तनिजयास्तवदासनार्थम् तिष्ठन्ति शान्तरसपूरितहृत्सरोजाः श्रीज्योतिरीशसततम् तव सुप्रभातम् त्वत्पादभक्तिभरितास्तव पादपद्मे स्वेषाम् शिरांसि विनिधाय विमुक्त्यवाप्यै तिष्ठन्ति नम्रशिरसः सदयम् प्रसीद श्रीज्योतिरीशसततमम् तव सुप्रभातम् कर्पूरहारतिविधाय परासुरार्यः आयान्ति सत्वरपदास्तव सेवनार्थम् श्रीज्योतिरीशकुसुमानि करेषु धृत्वा तिष्ठन्ति भक्तिभरितास्तव सुप्रभातम् श्रीज्योतिरीशकरुणालय भक्तलोकचिन्तामणे विततदिव्यगुणालभाल सुज्ञानदीपपरिमार्जित सर्वपाप सन्तर्पितार्थिविदधे तव सुप्रभातम् श्रीज्योतिराश्रमनिवाससुधीजनौघसंरक्षणम् सतत तत्परभावयुक्त त्वद्दिव्यपादकमलोदकपायिनश्च भक्तास्थिताश्च गुणयम् तव सुप्रभातम् भक्तालि नित्यकृतगानरसम् निशम्य सन्तुष्टवान् भवसि सत्यमिदम् च वेत्तुम् भद्राधरा सुजनतल्लजवंश तत्र संस्तौति सद्गुरुविभो तव सुप्रभातम् ओमाग्निकुण्डनिचये शिखाम् निवेश्य तज्ज्वालने निरतजागृतियुक्तबुद्धिः सन्दृश्यसे किमिति संशयभक्तचेताः भक्तालिरस्ति भगवन् तव सुप्रभातम् दुष्टाग्रहादिपरिपीडितमानवाणिः त्वद्दर्शनेन नितराम् सुखमेत्यलोके संस्तौति तावकगुणान्महनीयतेजः श्रीज्योतिरीश भगवन् तव सुप्रभातम् सम्पूर्णमोक्षपदविग्रहणाय योगि सङ्घाश्चरन्ति तव पादयुगम् स्मरन्तः काम्यार्थसिद्धिरत भक्तजनो भवन्तम् इन्दोर्जिने भजति तत्तव सुप्रभातम् ज्ञानैकवेद्यमनोत्तरयोगशालिन् त्वज्ञानरीतिमहिमानमनारतम् च ध्यायन् हृदा सुमृणसञ्चयमेति सम्यक् संवर्धते च भगवन् तव सुप्रभातम् निष्ठागरिष्ठमहिमालसि ते मुखे च कान्तिम् निरीक्ष्य सम्भ्रमयुक्तचेताः योगीश संस्थितिकवेत्ति सुयोगभावम् उत्तिष्ठपश्य सुकृतिम् तव सुप्रभातम् श्रीयोगिवर्यकरुणाजलधे महात्मन् सुज्ञानिवन्दितपदाम्बुजयुग्मदेव श्रीज्योतिराश्रमनिवास भजन्ति भक्ताः स्वामिन् प्रसीद सहसा तव सुप्रभातम् संसारसागरदितीर्षुजाः समेत्य सुज्ञानबोधसरणिम् भवतो लभन्ते काम्यार्थका सुजनसंहतिरप्यनन्तम् भाग्याधिकम् च लभते तव सुप्रभातम् सुज्ञानरूपसु विशिक्षितयोगविद्यभक्तालिमानसपयोरुहमित्रदेव वेदान्तसारबुधसेव विदपादपद्म श्रीज्योतिरीश भगवन् तव सुप्रभातम् अज्ञानबीजहरसुन्दरयोगदूर सुज्ञानकान्तियुतनिर्मलसुन्दराङ्ग तिष्ठत्यसौ सुजनसंहतिरत्र भक्त्या श्रीज्योतिरीश भगवन् तव सुप्रभातम् त्वत्पादधूलिमनिशं सुरशिरस्सु धृत्वा भक्तास्तुवन्ति तव निर्मलदिव्यकीर्तिम् तेषामपहिष्टकरणाय दयैकसिन्धो उत्तिष्ठ सद्गुणगणे तव सुप्रभातम् रम्या कृते विमलमानसभक्तपाल सन्मोक्षपद्धतिविदर्शकवैमुमुक्षोः श्रीज्योतिरीशकरुणाकरचित्स्वरूप योगानुभाव सततम् तव सुप्रभातम् आदित्यशुभ्रकिरणानि सुकुल्लपद्मैः युक्ता सुनिर्मलजलैः सहिता सरस्यः राजन्ति पश्यत यथागतदर्शनेन हृष्टा प्रिया इव विभो तव सुप्रभातम् भोगश्च योगमनिशम् कुरुते त्रिलोके यागश्च योगमधिकम् सततम् करोति लोकेश पद्धतिरियम् विदधेति वक्तुम् उत्तिष्ठ सद्गुणनिधे तव सुप्रभातम् सम्पूर्णयोगमधिकम् तनुते जनानाम् ध्यात्वा सदा मनसि योगमहीनबुद्ध्या ध्यात्वा कथम् व्रजति तत्त्वमसीति लक्ष्यम् ज्ञातुम् जनोऽस्ति भगवन् तव सुप्रभातम् स्नानम् च कर्तुमिहते सुजलप्रपूर्णपात्राणि हस्तकमलेषु निधाय नार्यः तिष्ठन्ति चात्र तव पादयुगम् स्मरन्त्यः श्रीज्योतिरीश भगवन् तव सुप्रभातम् क्षीराभिषेककरणाय सुभक्तवर्याः क्षीरम् निधाय कमनीयघटेषु पूर्णम् तिष्ठन्ति संस्मृतिमहान्नवतारणैकज्ञानार्जनाय च विभो तव सुप्रभातम्।